क्षम्यतां भगिनि. सो ऐ विल् स्टाप् द रेकार्डिङ्ग् नौ. अस्तु अस्तु. आं भगिनि, इदानीं
पठामि
वा? सर्वेषां स्वागतम्. इदानीं ध्येयमन्त्रेण आरम्भं कुर्मः. अस्तु, गोपिका भगिनि.
श्रीगुरुभ्यो नमः. पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्. हिन्दुधर्मं समाजं च, पवित्रां संस्कृतिं तथा, संरक्ष्य ननु कुर्याम विश्वं शान्ति समन्वितम्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ. श्रीगुरुभ्यो नमः. हरिः ॐ.
बहु धन्यवादः भगिनी. सो अद्य गुरुपूर्णिमा इति अस्ति, अतः नूतनश्लोकमपि पठामः इति. गुरुः नास्ति चेत् मार्गदर्शनमपि नास्ति खलु. अतः एव गुरुरेव गति, गुरुरेव गति, गुरुमेव भजे, गुरुनैव सहस्नि. नमो गुरवे, न गुरो परं शिशुरस्मि. विदौट् गुरु ऐ एम् ओन्ली अ बेबी. गुरुम् इतिरस्ति गुरौ, मम पाहि गुरोः. सो अत्र सप्तविभक्ति अत्र आगच्छति, विभक्तयः अत्र सन्ति. गुरुः एव गतिः, गुरुम् एव भजे, गुरुणे गुरुणा इति, गुरुणा गुरुणेन गुरुणा. अत्र गुरुशब्द गुरुणा एव सह अस्मि. गुरवे नमः. नमो गुरवे. नमः गुरवे. प्रथमा, द्वितीया, तृतीया, चतुर्थी. न गुरोः परं पञ्चमी. शिशुः अस्मि. गुरोम् गुरोः इति अस्ति. गुरौ मम पाहि गुरु इति सम्बोधनरूपम्. अस्तु, अग्रे सम्यक्तया पठामः. इदानीम् अभ्यासं न, विभक्तिवल्लरीं प्रति गच्छामः. अस्तु, अत्र वयं द्वितीयाविभक्तिरूपमेव पठितवन्तः खलु गतवर्गे. अग्रे गच्छामः. द्वितीयाविभक्तिरूपं कथं भवति? सर्वत्र प्रथमाविभक्ति यथा अस्ति, रामः इति अस्ति, द्विवचने रामौ रामाः. यथा प्रथमाविभक्ति द्विवचनमस्ति, तथा एव द्वितीयाविभक्ति द्विवचनमपि अस्ति. परन्तु एकवचने सर्वत्र मकारः श्रूयते. इट् इस् हर्ड्. मकारम् आगच्छति, मकारः आगच्छति, मकारं लेखनीयं सर्वत्र. रामं, हरिं, गुरुं सर्वत्र, पुल्लिङ्गं वा स्त्रीलिङ्गं वा. परन्तु नपुंसकलिङ्गे इकार उकार मध्ये तथा नास्ति. दधि, मधु एव. अस्तु वा? अस्तु. प्रथम उदाहरणमस्ति कर्मपदमस्ति चेत् तत्र द्वितीयाविभक्तिरूपमेव भवति, तत् वयं पठितवन्तः इतोपि पर्यन्तम्। एकवचनम् अपि पठितवन्तः, बहुवचनमपि पठितवन्तः। एकवचने सर्वत्र मकारः अस्ति, मकारः। बहुवचने पुल्लिङ्ग अस्ति चेत् नकारः। आकारान्तस्त्रीलिङ्ग अस्ति चेत् आह। ईकारान्तस्त्रीलिङ्ग अस्ति चेत् ईहि। नपुंसकलिङ्गे आनि आनि इति भवति। अस्तु, वयम् एतत् पठितवन्तः, अग्रे गच्छामः वा? अस्तु, सप्तम अभ्यासं पठामः इदानीम्। अस्तु, गोपिका भगिनी पठति वा प्रथमम्?
आम् आं भगिनि। अधः एकं सम्भाषणमस्ति, सम्भाषणं पठत। आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत। गीता, ह्यः भवती किमर्थं डेश् न आगतवती? उत्तरं वक्तव्यं वा भगिनि?
आम् आं भगिनि।
ह्यः भवती किमर्थं विद्यालयं न आगतवती?
विद्यालयं न आगतवती, सम्यक् भगिनि। एकवारम् अत्र रामम् इति अस्ति चेत् अत्र पुरुषः अस्ति, अतः प्रश्नः कः? कं वदति, कं पश्यति इति। वस्तु अस्ति चेत्
किं,
सम्यक्। वस्तु अस्ति चेत् किं, पुरुषः अस्ति चेत् कं, स्त्रीलिङ्ग रमाम्, अहं रमां वदामि इति अस्ति चेत् प्रश्नः कः?
काम्,
काम्। परन्तु न जानीमः पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति अस्ति चेत्
किं,
पुल्लिङ्गः वा स्त्रीलिङ्ग वा, भवती कं पश्यति अथवा कां पश्यति अथवा कम् एव सम्यक्, परन्तु न जानीमः चेत् कं, जानीमः चेत् कम् अथवा का। वस्तु अस्ति चेत् किं, परन्तु अत्र स्थलं गच्छति चेत् अत्र प्रश्नः कः?
कुत्र,
कुत्र। अस्तु, अत्र प्रश्नः कुत्र? भगिनि,
विद्यालयं न आगतवती?
विद्यालयं न आगते, कुत्र न आगतवती? विद्यालयं न आगतवती। सो अत्र गमनक्रिया अस्ति चेत् अत्र अपि द्वितीयाविभक्तिरूपं भवति, अत्र प्रश्नः अस्ति कुत्र इति। अस्तु, केतकी भगिनि, केतकी भगिनि अग्रे वदतु।
आम् आं भगिनि। माला, ह्यः अहं ग्रामं गतवती आसम्।
ग्रामं गतवती आसम्, सो अत्र अत्र आगतवती एव अस्ति, अत्र आगतवती आसम् अपि अस्ति। भेदः कः, अर्थः कः? आगतवती अपि पर्याप्तमेव खलु? आगतवती आसम् इति वदामः चेत् तत्र सूक्ष्म अर्थः कः?
पास्ट् टेन्स्।
पास्ट् टेन्स्, आगतवती आसम् इत्युक्ते पूर्वमेव आगतवती इति अर्थे। आगतवती अस्मि इति अस्ति चेत्
प्रेसेण्ट् टेन्स्,
लैक् इदानीमेव आगतवती, इदानीमेव आगतवती इति। अत्र एव अस्मि इति अपि अर्थं ऊहां कर्तुं शक्नुमः वयम्।
अस्तु
अस्तु, अग्रे परमेश्वर महोदय।
गीता, ग्रामं किमर्थं गतवती भवती?
ग्रामं, सम्यक्, ग्रामं। सो अत्र ग्रामं किमर्थं
गतवती भवती?
भवति. अस्तु अग्रे सागरि भगिनी.
क्षम्यतां भगिनि,
चिन्ता
प्रतिवर्षं मम पितामहः देवीपूजां करोति, अतः अहं ग्रामं गतवती.
ग्रामं गतवती. सो अत्र वयम् अभ्यासदर्शिन्यां पठितवन्तः वर्षे वर्षे इति अस्ति चेत् प्रतिवर्षं, दिने दिने अहं गच्छामि इत्युक्ते प्रतिदिनम् इति अर्थः. केवलं स्मरणार्थं वदामि. अत्र देवीपूजाम् इति वस्तु न कार्यमेव, परन्तु अत्रापि द्वितीया विभक्ति. यदा पूजां करोति, स्नानं करोति इति अस्ति चेत् तत्र द्वितीया विभक्तिरूपं भवति. करोति अस्ति चेत् ततः पूर्वं किं पदम् आगच्छति तस्य द्वितीया विभक्तिरूपम् आगच्छति. पाठं करोमि, स्नानं करोमि इत्यादि, पूजां करोमि, ग्रामं गतवती. अस्तु अग्रे सविता भगिनी, खलु सविता भगिनी, बृहत् भवती किं किं कृतवती? अस्तु भगिनि सविता भगिनी. सविता भगिनी अस्ति वा? अस्तु शारदा भगिनी तर्हि.
आं भगिनि, माला अहं ग्रामे लीलां लतां च दृष्टवती, अहम् अपि पूजां कृतवती.
पूजां कृतवती,
पितामहेन सह सम्भाषणं कृतवती.
अग्रे गच्छतु.
अहं वा?
आम् आं भगिनि.
बीजपूर्वपूरवृक्षम् आरुह्य फलानि खादितवती. अस्तु, ह्यः अध्यापकः कं पाठं पठितवान्?
पाठितवान् पाठितवान् अस्ति
पाठितवान्
अस्तु. सो अत्र सो एतत् अस्ति वस्तु खलु, लताम् एतत् एतत् अस्ति महिला लीला, पूजां कृतवती वयं पूर्वमेव दृष्टवन्तः. कृतवती इति अस्ति चेत् ततः पूर्वं पूजां द्वितीया विभक्ति भवति. अत्र अपि बीजवृक्षाम् आरुह्य, अत्र ल्यबन्तपदम् आगच्छति चेत् ततः पूर्वं द्वितीया विभक्तिरूपं भवति. ल्यबन्तपदम् अथवा त्वान्तपदम्, त्वान्तपदम् अपि च तुमुन् इत्यादि इत्यादीनि पदानि आगच्छन्ति चेत् ततः पूर्वं द्वितीया विभक्तिरूपं भवतु. फलानि खादितवती, एतत् सर्वं कं पाठं पाठितवान्, सम्यक्. अस्तु अग्रे उमाकृष्णन् भगिनी, शारदा भगिनी इदानीमेव उक्तवती. सविता भगिनी, पुनः पृच्छामि तस्याः नाम, किञ्चित् क्लेशः इति चिन्तयामि. अस्तु उमाकृष्णन् भगिनी अग्रे.
आं भगिनि, ह्यः अध्यापकः पाठं न पठितवान्, अपि तु
श्लोकान् पाठितवान्. अग्रे अपि पठतु.
तृतीयपाठस्य विषये सः प्रश्नान् पृष्टवान् वा?
प्रश्नान् पृष्टवान् वा इति अस्ति. अस्तु अग्रे.
क्षम्यतां भगिनी, ऐ पुट् अन्म्यूट् मै
ओ एवं वा
आं भगिनि
इदानीं वदतु सविता भगिनि
गीतां स्वयं गीता आं सः प्रश्नान् पृष्टवान् वयम् उत्तराणि उक्तवन्तः
उक्तवन्तः अग्रिममपि करोतु कृपया
माला ह्यः गायत्री किं कक्ष्याम् आगतवती
सम्यक् कक्ष्याम् अस्तु अग्रे रम्या भगिनि
आं सा नूतनं चोळं नूतनं चोळं निचोळं च धृत्वा आगतवती ह्यः तस्या जन्मदिनम् अतः सा सर्वेभ्यः चाकलेहं दत्तवती
चाकलेहान् बहुवचनं
चाकलेहां
हान्
सा अध्यापकाः अध्यापकाम् अध्यापकान् कृतवती
नमस्कृतवती अस्तु
अध्यापकाः आशीर्वादं कृतवान्
अध्यापकान्
अध्यापकान् आशीर्वादं कृतवन्तः अभिनन्दवचनानि
भगिनि सारी टु इण्टरप्ट् इट् इस् आशीर्वादः ओन्लि वी हव् टु चेञ्ज् नो
अध्यापका आमां सम्यक् भगिनि सम्यक् सो अत्र एव अध्यापकान् नाट् हियर् अत्र
अध्यापकाः नमस्कृतवती अध्यापकान् नमस्कृतवती अध्यापकाः आशीर्वादं कृतवन्तः
भगिनि अत्र नकारः
अध्यापकान्
सा अध्यापकान् नमस्कृतवती अत्र अत्र मास्तु
अध्यापकाः आशीर्वादं कृतवन्तः वयम् अभिनन्दवचनानि उक्तवन्तः
अभिनन्दनवचन अभिनन्दनवचनानि अत्र चोलः इति अस्ति चेत् ल एव तमिळ् भाषायां ल इति अस्ति खलु तत्र एव ल न चोलः निचोलः चाकलेहान्
अस्तु भगिनि
अस्तु गोपिका भगिनि अग्रे अग्रे परितः अस्ति वा गोपिका भगिनि
आं भगिनि अहं परितः इत्येतस्य शब्दस्य योगे द्वितीया भवति उदाहरणं मम गृहं परितः उद्यानम् अस्ति विशेषः हिन्दीभाषायां गर्के सबि ओर् इति षष्टी भवति संस्कृते तु द्वितीया एव इति सर्वदा स्मरत अभ्यासः
एकनिमिषं भगिनि सो अत्र गृहम् अस्ति गृहस्य वामतः गृहस्य पृष्ठतः गृहस्य दक्षिणतः गृहस्य पुरतः परन्तु परितः इति वदामः चेत् तत्र द्वितीया विभक्तिरूपं भवति नो चेत् षष्टिविभक्तिरूपं भवति गृहस्य अन्तः परन्तु बहिः अस्ति चेत् विभक्ति का गृहात् गृहात् बहिः सो अत्र गृहम् इति दिशि वदामः चेत् स सर्वत्र इत्युक्ते परितः इति वदामः चेत् द्वितीय नो अन्तः अथवा वामतः दक्षिणतः पुरतः षष्टि बहिः इति वदामः चेत् पञ्चमी अस्तु अस्तु देवालयं परितः प्राकारः अस्ति इति उदाहरणं प्रायः अस्ति प्रायः भवेत् अस्तु भगिनि आरम्भं करोतु शाला इति करोतु शाला
शालां परितः क्रीडाङ्गणम् अस्ति
सम्यक् शालां परितः क्रीडाङ्गणम् अस्ति अस्तु केतकि भगिनि
शर्करा परितः पिपीलिकाः अस्ति
शर्करा वा भगिनि शर्करा
वा शर्करां
सम्यक्
परितः पिपीलिकाः अस्ति
पिपीलिकाः
सन्ति और अस्ति
सन्ति पिपीलिका पिपीलिकाः
सन्ति
प्राकारः एकवचनं क्रीडाङ्गणम् एकवचनम् अत्र बहुवचनम् आगच्छति बहुवचनं अस्तु परमेश्वर महोदय
चन्द्रां परितः मेघाः अस्ति
मेघः एकवचनं मेघाः बहुवचनं
मेघाः
अस्ति सन्ति चिन्ता मास्तु
मेघाः सन्ति
पुनः वदतु
चन्द्रां परितः मेघाः चन्द्रं परितः मेघाः सन्ति
चन्द्रं परितः मेघाः सन्ति चन्द्रं परितः मेघाः
सन्ति
अस्तु सागरी भगिनी
वेदिकां परितः प्रेक्षकाः सन्ति
प्रेक्षकाः सन्ति प्रेक्षकाः इत्युक्ते स्पेक्टेटर्स्
वेदिका भगिनी
वेदिका इत्युक्ते स्टेज् वेदिकां परितः प्रेक्षकाः सन्ति अस्तु सम्यक् सविता भगिनि
आं भगिनि तस्या
सा अस्ति चेत् तां
सा चेतः ताम् ओके तां परितः सङ्ख्यः अस्ति
सख्यः इस् बहुवचनं सखी सख्यौ सख्यः लैक् नदी सखी सख्यौ सख्यः
सख्य सन्ति
सख्यः सन्ति
तां परितः सख्यः सन्ति
सख्यः सन्ति सः अस्ति चेत् कथं भवति सः
तं परितः सख्यः सन्ति
अस्तु सो अत्र पश्यन्तु सः तं तौ तान् तान् परितः तं परितः स्त्रीलिङ्ग अस्ति चेत् तां परितः
तां परितः ताः परितः
ताः परितः नपुंसकलिङ्गे तत् तानि एवं प्रश्नवाचकं कं परितः कां परितः एवमेव कान् परितः काः परितः इत्यादीनि पदानि आगच्छन्ति अस्तु अग्रे शारदा भगिनी
आं भगिनि
अध्यापकान् परितः बालकाः सन्ति.
सम्यक्, अध्यापकान् परितः बालकाः सन्ति. अस्तु, शारदा भगिनी.
अहम् इदानीं
सारि, ऐ रोट् यर् नेम् ट्वैस् भगिनि, तथा एव. अस्तु, उमा भगिनी.
अध्यापिकां परितः बालिकाः सन्ति.
अस्तु, अध्यापिका एकवचनमस्ति चेत् तत् सम्यक्, बहुवचनमस्ति चेत्
अध्यापिकाः.
सम्यक्, अध्यापिकाः. सम्यक्, अध्यापिकाः परितः बालिकाः. आं भगिनि, दट्स् वै ऐ मेन्शन् इट् भगिनि, ऐ नो दट्स् ओके. धन्यवादः. अस्तु, रम्या भगिनी.
दीपाः परितः कीटाः सन्ति.
दीपः इति पुल्लिङ्गपदम्.
दीपान्,
दीपान् परितः कीटाः सन्ति. सम्यक्, दीपान् परितः कीटाः सन्ति. अन्य कोऽपि अस्ति वा? न. अस्तु, पुष्पाणि. अस्तु, गोपिका भगिनि पुनः.
आं भगिनि, पुष्पाणि परितः भ्रमराः सन्ति.
पुष्पाणि, तत्र परिवर्तनं न भवति, किमर्थम्?
नपुंसकलिङ्गे परिवर्तनं नास्ति भगिनि.
नास्ति भगिनि, उत्तमम्, उत्तमम्. सो अत्र पुनः तादृश अभ्यासः एव, परितः इत्यादि. अस्तु,
पञ्चमः न अस्ति भगिनि तत्र, प इति कारणात् तत्र न, पञ्चमः न अस्ति. पुष्पाणि,
षकारः अस्ति. सम्यक्, षकारः अस्ति, अतः पुष्पाणि इति भवति. रेफा ऋकारः षकारः अस्ति चेत् ऋणकारः भवति. अस्तु, केतकि भगिनि.
अद्यस्तनचित्रस्य आधारेण किं परितः किम् अस्ति इति लिखितः. अस्तु, कमलं परितः भ्रमराः सन्ति. उदाहरणं
कमलम् अस्ति, कमलं परितः भ्रमराः
सन्ति.
अग्रिमम् अस्ति,
कमलः कमलं परितः त्रिकोणकृतिः अस्ति.
अथवा भ्रमरान्, कमलम् अपि सम्यक् एव. भ्रमरः, भ्रमरान्, भ्रमरान्
भ्रमरान् परितः त्रिकोणकृतिः सन्ति.
त्रिकोणकृतिः इति एकवचनमेव
अस्ति.
अस्ति, त्रिकोणकृतिः अस्ति. सम्यक्,
त्रिकोणाकृतिः.
त्रिकोणाकृतिः अस्ति.
अस्ति,
अस्ति. अस्तु,
त्रिकोणं प्लस् आकृतिः, त्रिकोणाकृतिः.
आम् आम्, त्रिकोण, त्रिकोण इस् त्रि
ट्रयाङ्गल्,
त्रि कार्नर्स्, त्रिकोणे इति वदामः, कोणे अस्ति, कार्नर्स्, त्रिकोण आकृतिः. अस्तु,
नेक्स्ट् इस् वर्तुलाकृति.
त्रिकोण, त्रिकोण. सो अत्र, अत्र षष्टि विभक्ति वा द्वितीया विभक्ति आगच्छति वा?
द्वितीया,
द्वितीया.
त्रिकोण, त्रिकोणाकृतिं सन्ति.
त्रिकोणकृतिं परितः.
ओ, त्रिकोणाकृति परितः, परितः स्क्वेर् चतुरं, चतुरम् अस्ति.
वर्तुलाकृतिः अस्ति.
What is that? Vartula, sorry. Vartula Kriti.
वर्तुलाकृतिः अस्ति.
त्रिकोणाकृतिं सन्ति सन्ति वर्तुलाकृतिं
न न त्रिकोणः
त्रिकोणाकृतिं परितः वर्तुलाकृतिः अस्ति
अस्ति वर्तुलाकृतिः अस्ति
अस्ति
अस्ति अस्तु. सागरि भगिनी
वर्तुलाकृतिं परितः चतुरस्रम् अस्ति
चतुरस्रम् अस्ति चतुरस्रम् अस्ति अस्तु. अग्रे सविता भगिनी
चतुरस्रं परितः बिन्दुचतुरस्रं सन्ति
अस्ति एव चतुरस्रम् एकवचनमेव अस्ति.
ओहो
बिन्दुचतुरस्रम् अस्ति अत्र केवलं बिन्दुः इति अस्ति चेत् बिन्दवः बिन्दवः सन्ति परन्तु अत्र बिन्दुचतुरस्रमेव डाटेड् स्क्वेर् इति आमाम् अत्रापि अहमपि चिन्तितवती परन्तु बिन्दुः इति अस्ति चेत् बिन्दवः बिन्दवः सन्ति परन्तु बिन्दुचतुरस्रम् इति एकवचनमेव.
आगतं भगिनि.
उत्तमं भगिनि अस्तु. शारदा भगिनी
आं भगिनि बिन्दुचतुरस्रं परितः अष्टकोणाकृतिः अस्ति
अष्टकोणाकृतिः अस्ति अष्टकोणाकृतिः एवम् अस्ति अष्टकोणाकृतिः अस्ति. सम्यक् भगिनि. उमाकृष्णन् भगिनी
अष्टकोणाकृतिं परितः वक्ररेखा अस्ति
वक्ररेखा अस्ति अस्तु सम्यक् अस्तु. अवगच्छन्ति खलु परितः इति अस्ति चेत् द्वितीया विभक्ति तावदेव अत्र विषयः अस्तु. अत्र नूतनविषयः अस्ति अस्तु. रम्या भगिनी
रामः
न न प्रथमम् एतत् पठतु उभयतः इत्यस्य
उभयतः इत्यस्य पदस्य योगे अपि द्वितीया एव भवति यथा मम गृहम् अभयतः
उभयतः
सस्यानि सन्ति
गृहमस्ति वामतः अस्ति दक्षिणतः अपि अस्ति अतः उभयतः उभयतः सस्यानि अत्र सरौण्डिङ्ग् अस्ति चेत् परितः परितः परन्तु वामतः एव वदामः चेत् गृहस्य वामतः गृहस्य दक्षिणतः परन्तु उभयतः अस्ति चेत् द्वितीया विभक्तिरूपम् अस्तु भगिनि. रम्या भगिनि अग्रे अग्रे पठतु.
चित्रं पश्यतु गृहस्य वामतः दक्षिणतः च पार्श्वे द्वये केवलम् अत्र वृक्षाः सन्ति अतः उभयतः इति प्रयोगः कृतः.
पर्याप्तं भगिनि. सो अत्र प्रयोगः कृतः इति अस्ति कृतः इति कीदृशपदम् एतत् कप्रत्यय खलु कृतवान् कृतवन्तः परन्तु अत्र कृत एव प्रयोगः इति पुल्लिङ्गपदम् अतः कृतः इति आगच्छति तत्र. चित्रं पश्यत गृहस्य वामतः दक्षिणतः च सो अत्र षष्टिविभक्ति अस्ति पार्श्वद्वये केवलम् अत्र वृक्षाः सन्ति अतः उभयतः इति पदम् उपयोगं कुर्मः चेत् द्वितीयाविभक्तिरूपं भवति. अस्तु, गोपिका भगिनी, अन्य कोऽपि नास्ति इति मन्ये, अन्य कोऽपि अस्ति वा? न इति. अस्तु अस्तु भगिनि, पठतु दशमे.
दशमे पृष्ठे चित्रं पश्यत, तत्र गृहस्य पुरतः पृष्ठतः वामतः दक्षिणतः च सर्वासु दिक्षु उद्यानम् अस्ति, अतः तत्र परितः इति प्रयोगः कृतः. अतः तात्पर्यम् एवं सिद्ध्यति, परितः इक्वल् टु सर्वासु दिक्षु, उभयतः इक्वल् टु पार्श्वद्वये केवलं. विशेषः हिन्दीभाषायां तु घर् के दोनो ओर् इति षष्टि प्रयुज्यते, संस्कृते तु द्वितीया एव.
द्वितीया एव, अस्तु. अभ्यासं प्रथमम् उदाहरणं पश्यामः. चतुरस्रे सूचन, चतुरस्रे इत्युक्ते अत्र कोष्टकम् अस्ति खलु, तस्य नाम अस्ति. चतुरस्रे सूचितानां शब्दानां साहाय्येन वाक्यानि रचयत. उदाहरणं किम् अस्ति? अग्रिमपुटे अस्ति, अहं पठामि. महाचोरं, महाचोरः मध्ये अस्ति. महाचोरम् उभयतः आरक्षकाः सन्ति. महाचोरः मध्ये अस्ति, वामभागे आरक्षकाः सन्ति, दक्षिणभागे अपि आरक्षकाः सन्ति. अतः महाचोरम् उभयतः आरक्षकाः सन्ति इति अस्ति. उदाहरणं तथा अस्ति. अस्तु, केतकी भगिनी, वदतु.
लता सख्यः न. हौ टु मेक् इट्?
सो अहं वदामि प्रथम उदाहरणं. महाचोरम् उभयतः आरक्षकाः सन्ति.
ओके. सख्यं
लतां,
लताम् उभयतः सख्यः अस्ति,
सन्ति,
सन्ति, सख्यः सन्ति.
किमर्थं सन्ति इति अस्ति?
ओ, सख्यः बहुवचनम्.
बहुवचनं, सखी, सख्यौ, सख्यः, सख्यः सन्ति,
सख्यः सन्ति. ओके,
अस्तु. अग्रे परमेश्वर महोदय.
अध्यापकं,
उभयतः,
उभयतः छात्राः सन्ति.
छात्राः सन्ति उभयतः. लिखामि अतः उभयतः,
उभयतः,
उभयतः. अस्तु, सम्यक्. सागरी भगिनी.
वस्त्र आपणम् उभयतः, धान्यापणाः सन्ति.
धान्यापणाः सन्ति, सम्यक्, धान्यापणाः सन्ति. अस्तु, सविता भगिनी.
द्वारम् उभयतः वृक्षाः सन्ति.
द्वारम् उभयतः वृक्षाः सन्ति, सर्वे अवगच्छन्ति खलु. अस्तु, शारदा भगिनी.
भवनम् उभयतः आपणाः सन्ति.
सम्यक्, सम्यक्. उमाकृष्णन् भगिनी.
उत्पीठिका न?
उत्पीठिका.
उत्पीठिकाः उभयतः आसन्दाः सन्ति.
परन्तु अत्र उत्पीठिका इति एकवचनमेव.
ओया, ओके. उत्पीठिकाम्
उभयतः. अस्तु, रम्या भगिनी.
देवम् उभयतः मत्ताः सन्ति.
सम्यक्. अग्रे गोपिका भगिनी.
आं भगिनी, आं भगिनी.
लक्ष्मीः न श्रूयते भगिनि. अस्तु अहं वदामि, लक्ष्मीम् उभयतः गजाः सन्ति. अग्रे
वृत्तः उभयतः
इदानीं श्रूयते भगिनि,
वदतु गोपिका भगिनी, वदतु
भगिनि. लक्ष्मीम् अहम् उक्तवती भगिनि. लक्ष्मीम् उभयतः गजाः सन्ति.
सम्यक्, लक्ष्मी उभयतः गजाः सन्ति. अस्तु, केतकी भगिनी वदतु.
वृत्तम् उभयतः कर्मकराः सन्ति.
भगिनी
भगिनी, बोत् वाय् दे गिव् बोत् कर्मकराः वामतः
सो वामतः दक्षिणतः सन्ति चेत् एव उभयतः इति पदम् उपयोगं करणीयम्.
ओके,
केवलं वामतः वृद्धस्य वामतः कर्मकराः सन्ति, वृद्धस्य दक्षिणतः गजाः सन्ति चेत् तत्र उभयतः पदं न आगच्छति.
अस्तु अस्तु,
अतः एव तथा अस्ति.
अस्तु अस्तु भगिनि, धन्यवादः.
उत्तमप्रश्नः भगिनि. अस्तु अग्रे रामः, इदानीं द्विकर्मकं वाक्यं कथं भवति इति अस्ति. अस्तु अग्रे का पठति? परमेश्वर महोदय.
रामः फलं खादति इत्यत्र फलं कर्मपदम्. एतस्मिन् वाक्ये एकं कर्म अस्ति. रामः अध्यापकं रामः अध्यापकं प्रश्नं पृच्छति. इत्येतस्मिन् वाक्ये अध्यापकम् इति प्रश्नम् इति च कर्मपदम्. एवम् अत्र कर्मपदद्वयम् अस्ति. अतः एतत् द्विकर्मिकं वाक्यं
त्रिकर्मकं वाक्यम्. किमर्थं द्विकर्मकं वाक्यं?
डबल् समथिङ्ग्.
कर्मद्वयम् अस्ति. एकमस्ति कं पृच्छति, रामः पृच्छति,
प्रश्नं पृच्छति.
रामः कं पृच्छति, अध्यापकं पृच्छति. रामः अध्यापकं किं पृच्छति? प्रश्नं
पृच्छति
अथवा प्रथमं पृच्छति. कः पृच्छति? रामः
पृच्छति.
रामः किं पृच्छति?
प्रश्नं पृच्छति.
सम्यक्, प्रश्नं पृच्छति. रामः प्रश्नं कं पृच्छति?
अध्यापकं पृच्छति.
सो अतः कर्मपदद्वयम् अस्ति, अतः द्विकर्मकवाक्यम्. अस्तु, उत्तमं महोदय, धन्यवादः. सागरी भगिनी,
द फर्स्ट् सेण्टेन्स् रामः फलं खादति इत्यत्र फलं कर्मपदं हि अस्ति. तन् खादति शुड् बि कर्मपदम् इस् इट्
न भगिनि? खादति इति क्रियापदं खलु.
ओके ओके भगिनि.
सो अत्र उत्तमप्रश्नः भगिनि. सो अत्र खादति, कः खादति? रामं खादति. रामं किं खादति? रामं फलं खादति. अन्य प्रश्नः नास्ति खलु? रामः कं खादति तथा नास्ति. सो अतः खादति इति क्रियापदं द्विकर्मकं न, द्विकर्मकधातु न. ओके, अस्तु,
अवगतं भगिनि, अवगतम्.
उत्तमं भगिनि. सागरि भगिनि,
संस्कृते व्या व्यावहारिकतया
तया इत्युक्ते इन् द नार्मल् कोर्स् आफ् टैम् अत्र अस्ति व्यावहारिकतया. अस्तु अग्रे पश्यामः.
चतुर्दातवः एतादर्शकाः अन्ये दातवः च
धातवः च. अस्तु
द्विकर्मकाः इति प्रसिद्धाः ते च वदति पृच्छति प्रार्थयति नयति
नयति. अत्र ते किं वदन्ति इत्युक्ते बहवः दातवः सन्ति. अहं चिन्तयामि एवम् अस्ति इति. परन्तु व्यावहारिकतया इत्युक्ते इन् अवर् डेलि यूस् ओके अधिकतया इति मोस्ट्लि इति वदामः खलु अधिकतया चत्वारः धातवः एव वयम् अधिकतया प्रयोगं कुर्मः. वदति वदति इति अर्थे अन्यक्रियापदानि अपि सन्ति खलु. इदा उदाहरणं कथयति प्रार्थयति प्रार्थयति न निवेदयति एतादृशपदानि अपि वदति इति अर्थे अस्ति. एवमेव पृच्छति पृच्छति प्रार्थयति समानार्थकपदमिति अहं चिन्तयामि. परन्तु पृच्छति प्रार्थयति नयति इति अस्ति चेत् आनयति अपि नयति आनयति अपि. सो एतादृशक्रियापदानि एव द्विकर्मकं वाक्यं कर्तुं समर्थाः सन्ति इति. अवगच्छन्ति वा?
आं भगिनि.
अस्तु वदति पृच्छति प्रार्थयति नयति अपि च एतादृश अर्थे अन्य के धातवः सन्ति ते द्विकर्मकं वाक्यं कर्तुं शक्नुवन्ति एतादृशपदानि शक्नुवन्ति. अस्तु अग्रे सविता भगिनी. काचित् समस्या अस्ति इति चिन्तयामि. अस्तु शारदा भगिनी.
अभ्यासः आवरणे दत्तानां शब्दानां साहाय्येन रिक्तानि स्थलानि उचितैः रूपैः पूरयत. उदाहरणं वदामि वा भगिनि?
आम् आं भगिनि.
उदाहरणं कर्मकरः धनिकं वस्तुस्थितिं वदति.
सम्यक्. अतः कर्मकरः प्रथमं वदति. कः वदति? कर्मकरः वदति. कर्मकरः किं वदति?
वस्तुस्थितिं
वदति. कर्मकरः वस्तुस्थितिं कं वदति?
धनिकं वदति.
धनिकं वदति. अस्तु अग्रे गमनात् पूर्वम् एतत् पश्यामः. सो अत्र दुह् याच् पच् दण्ड् इत्यादयः षोडशधातवः द्विकर्मकाः इति षोडशधातवः. किन्तु उपरि निर्दिष्टाः चत्वारः धातवः एव व्यवहारे बहुधा उपयुज्यन्ते. अन्येषाम् उपयोगः विरलः. इत्युक्ते षोडशधातवः सन्ति ते द्विकर्मकाः. परन्तु उपरि निर्दिष्टाः चत्वारः धातवः एव व्यवहारे बहुधा उपयुज्यन्ते. अधिकतया एते चत्वारः धातवः एव उपयोगं कुर्मः वयम्। अन्येषाम् उपयोगः विरलः, विरलः इत्युक्ते वेरि रेर्लि वि सी दि अदर्स्। अस्तु, अन्यत् एकं टिप्पणी अस्ति, अन्यत् एका टिप्पणी अस्ति। अर्थधातुः, अर्थधातुः आत्मनेपदी, अर्थधातु। प्रार्थयति इति प्रयोगः अपि अस्ति, प्रार्थयति अपि अस्ति, प्रार्थयते अपि अस्ति। निजन्तानां निच् उच्यते तत्र, तदैव रूपम् अत्र उपयुक्तं, प्रार्थयति इति। अस्तु, अग्रे
भगिनि, बहुधा इति अस्ति, अव्ययं वा किम् अस्ति? बहुधा तृतीय वा?
अव्ययमेव, बहुधा अव्यय।
भगिनि, dvikarmika means only two things, or even if it is four or five things also dvikarmika?
It is usually two things eva mahodaya. So atra uttama prashna atra udaharanartham ramah adhyapakam prashnam pruchyate. Prashnam iti eka vastu iti chintayamah. Prashnam anya kem sandeha nivaranam, sandeham प्रश्नं सन्देहं च पृच्छति, परन्तु प्रश्नं सन्देहम् एक केटगरि एव खलु। सो अत्र एकमेव कर्मपदम् इति वदामः। अन्य उदाहरण, रामः रोटिकाम् ओदनं च खादति। रोटिकाम् ओदनं फलं सर्वम् एकमेव केटगरि, एकमेव केटगरि मध्ये अस्ति। एवमेव अध्यापकं, रामः अध्यापकं, छात्रं, छात्राम्, अध्यापिकां च प्रश्नं पृच्छति। अत्र द्विकर्मकमेव। धन्यवादः। अस्तु, इदानीं वाक्यं प्रति गच्छामः। सविता अस्ति वा भगिनि?
आम् अस्ति भगिनि।
इदानीं वदतु।
पान्तः, केन् यू गिव् मी वन् एक्साम्पल् भगिनि?
अस्तु भगिनि, या ऐ थिङ्क् यू स्टेप्ड् औट् खलु।
यस् भगिनि,
आमामां। सो अत्र उदाहरणम् एवम् अस्ति भगिनि, सो अत्र द्विकर्मकधातु इति अस्ति अस्मिन् पाठे। द्विकर्मकधातुं पठामः इदानीं। सो अत्र कर्मद्वयम् अस्ति, द्विविधकर्म। एकमस्ति किम् इति प्रश्नस्य उत्तरम्, अन्यकर्मपदमस्ति कम् अथवा काम् इति प्रश्नस्य उत्तरम्। अतः द्विविधकर्मपदम् अस्ति अत्र। कर्मकरः वदति, कर्मकरः किं वदति? वस्तुतिथिं वदति। कर्मकरः कं वस्तुतिथिं वदति? धनिकं वस्तुतिथिं वदति। अतः द्विकर्मकधातु इति। द्विकर्मक इत्युक्ते चत्वारः धातवः एव प्रसिद्धाः सन्ति, इत्युक्ते अधिकतया अथवा बहुधा एकमेव, एते एव वयम् उपयोगं कुर्मः, एतानि खलु, एतान् एव उपयोगं कुर्मः। वदति, पृच्छति, प्रार्थयति, नयति, एते एव सन्ति, एतान् उपयोगं कुर्मः वयम्। अस्तु, इदानीं वदतु।
प्रयत्नं करोमि। पान्तः आपणिकः मार्गः पृच्छति। पान्तः पान्तः आपणिकाम् आपणिकं पान्तः आपणिकं मार्गं पृच्छति।
सम्यक्, मार्गं पृच्छयति, पृच्छति भवन्तः आपणिकं मार्गं
पृच्छन्ति.
मार्गम् इति उत्तरम् अस्ति. प्रश्नः कः? भवन्तः
कां पृच्छति?
किं किं पृच्छति?
किं पृच्छति? काम इस् फेमिनिन् जेण्डर् एक्चुलि.
सो अत्र सो इफ् इट् इस् नाट् अ ह्यूमन् बीङ्ग् इट् इस् किम्. ह्यूमन् बीङ्ग् अस्ति चेत् पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति दृष्ट्वा कम् अथवा काम्. पान्तः किं पृच्छति? मार्गं पृच्छति. अत्र आपणिकः इति अस्ति चेत् प्रश्नः कः? पुल्लिङ्गं वा स्त्रीलिङ्गं वा?
पुल्लिङ्गः.
पुल्लिङ्ग पुल्लिङ्ग
किं पृच्छति?
कं कं पृच्छति?
कः कौ के कं कौ कं
कौ सो अत्र अहं लिखामि कं का. अत्र किं किम् एव बहुवचनमस्ति चेत् तथा परिवर्तनं कुर्मः वयम्. अस्तु अग्रे उमाकृष्णन् भगिनि.
भिक्षुकः गृहिणीम् अन्नं प्रार्थयति.
अन्नमेव गृहिणी गृहिणी. सो अत्र प्रश्नं पृच्छतु भगिनि.
भिक्षुकः कां प्रार्थयते? भिक्षुकः गृहिणीं प्रार्थयते. भिक्षुकः गृहिणीं किं प्रार्थयते? अन्नं प्रार्थयते.
सम्यक् कां किं सम्यक्. अस्तु रम्या भगिनि.
कर्मकरः सम्मार्जनीं प्रकोष्ठं नयति.
सम्मार्जनी स्त्रीलिङ्गं
प्रकोष्ठं नयति.
परन्तु भगिनि काम् अपि सम्यक् परन्तु किम् अपि सम्यक् एव. किमर्थम् इत्युक्ते वस्तु अस्ति खलु. वयं न जानीमः इति उक्त्वा किं किं नयति. वयं जानीमः चेत् का परन्तु सर्वदा किम् एव पृच्छामः. वयं किं नयति? वयं न जानीमः इति अनुमानं कृत्वा कर्मकरः किं नयति? सम्मार्जनी नयति. प्रकोष्ठः इति उत्तरं खलु. प्रकोष्ठम् इति उत्तरम्. प्रश्नः कः अत्र? अत्र स्थलम् अस्ति खलु प्रकोष्ठः इति स्थलम्. अतः कुत्र नयति?
कुत्र नयति?
कुत्र नयति इति आगच्छति. प्रकोष्ठं नयति. कुत्र नयति? प्रकोष्ठं नयति. कर्मकरः किं कुत्र नयति? प्रकोष्ठः इत्युक्ते रूम्.
ओके. कुत्र प्रकोष्ठं कुत्र नयति?
प्रकोष्ठं नयति. अस्तु सम्यक् सम्यक्. अस्तु गोपिका भगिनि.
बालिका विद्यालयं लेखनीं नयति.
प्रश्नं पृच्छतु.
बालिका विद्यालयं किं नयति?
किं नयति? लेखनीं नयति. अस्तु विद्यालयम् इति उत्तरस्य प्रश्नः.
बालिका कुत्र लेखनीं नयति? कुत्र लेखनीं नयति?
सम्यक्.
बालिका विद्यालयं लेखनीं नयति.
सम्यक्. उपरितनवाक्ये यथा अस्ति तथा एव अत्रापि अस्ति. सम्यक्
अस्तु.
केतकी भगिनी अग्रे.
आचार्यः छात्राः गीता बोधयति. आचार्यः किं बोधयति? छात्राः किं बोधयति? गीता बोधयति.
गीतां खलु भगिनी? गीतां.
गीतां बोधयति.
आचार्यः किं बोधयति? गीतां बोधयति. अस्तु.
गीतां बोधयति. आचार्यः कुत्र बोधयति? छात्राः.
स्थलम् अस्ति चेत् कुत्र?
देन् दिस् इस् अ छात्राः बहुवचन. आचार्यः कं न
कम् इति एकवचनं. कं कं कान् कान्
कान्. आचार्यः कान् गीता बोधयति?
गीतां. गीतां बोधयति.
गीतां बोधयति. छात्रान् बोधयति.
छात्रान्.
छात्रान् गीता. गीतां बोधयति.
सम्यक्. छात्रान् गीतां बोधयति. कान् किं बोधयति? छात्रान् गीतां बोधयति. परन्तु छात्राः इति स्त्रीलिङ्ग अस्ति चेत्
कस् न स्त्रीलिङ्ग अस्ति देन् का का बोधयति?
काः.
काः बोधयति?
कां के काः?
काः.
कां के काः? छात्राः गीतां
बोधयति.
अस्तु. परमेश्वर महोदय.
पितामही पौत्रान् कथां कथयति.
सो अत्र कथाः बहुवचनं.
ओ तु कथान्नि कथान्
कथाः
कथाः कथयति.
कथाः कथयति. सो अत्र पश्यन्तु वदति नास्ति अत्र, परन्तु वदति, बोधयति, कथयति, निवेदयति, उपदिशति. एतानि वदति इति अर्थे अस्ति. वदति. सो आल् दो दे आर् नाट् लिस्टेड् एस् द्विकर्मकधातु. बोधयति, कथयति, निवेदयति, उपदिशति. वदति इति अर्थे अस्ति. अतः द्विकर्मकधातवः. अवगच्छन्ति वा? आम् इति मन्ये. अस्तु, उत्तम. सागरि भगिनि.
प्रजाः महाराजं क्लेशान् निवेदयन्ति.
सम्यक्. निवेदयन्ति.
के निवेदयन्ति? प्रजाः. कं निवेदयन्ति? महाराजं. क्लेशान् किं?
किमेव.
किं किं निवेदयन्ति? क्लेशान् निवेदयन्ति.
उत्तमम्. उत्तमं. स्पष्टतया उक्तवती भगि. अवगच्छन्ति वा सर्वे? प्रश्नाः सन्ति वा? अस्तु, अग्रे. सविता भगिनी.
अपराधी आरक्षकं क्षमां प्रार्थयति.
सम्यक्. अपराधी इति पुल्लिङ्गपदमेव.
आं भगिनि.
योगी. योगी विद्यार्थी इव अपराधिन् मूलरूपम्. कः प्रार्थयते?
आरक्षकः प्रार्थयति.
न, अपराधी प्रार्थयति. हू इस् आस्किङ्ग्? अपराधी.
अपराधी. ओके.
कः? अपराधी अपराधी इत्युक्ते यः किमपि दोषं कृतवान् सः
आं भगिनि
अपराधी प्रार्थयते अपराधी कं प्रार्थयते
आरक्षकः प्रार्थयते
आरक्षकं प्रार्थयते
आरक्षकं
प्रार्थयते आरक्ष अपराधी आरक्षकं किं प्रार्थयते
क्षमां प्रार्थयते
क्षमां प्रार्थयते क्षमां करोतु इति सः आरक्षकं प्रार्थयते सम्यक् अस्तु शारदा भगिनी
अध्यापकः छात्रान् प्रश्नान् पृच्छति
सम्यक्
कः पृच्छति अध्यापकः पृच्छति अध्यापकः कान् पृच्छति अध्यापकः छात्रान् पृच्छति अध्यापकः छात्रान् किं पृच्छति अध्यापकः किं के कानि प्रश्नाः इति अस्ति चेत् किं वा भगिनि
किम् एव सर्वत्र किं किम् एव
अध्यापकः छात्रान् किं पृच्छति अध्यापकः छात्रान् प्रश्नान् पृच्छति
प्रश्नान् पृच्छति अत्र स्त्रीलिङ्ग अस्ति चेत् छात्राः
एव
छात्राः
काः प्रश्न
सम्यक्
भगिनि
सन्ध्या भगिनि इदानीं
सारी भगिनि
भवत्याः मेलनं समाप्तं वा इदानीं सम्यक् अस्तु
आं भगिनि क्षम्यतां कृपया
चिन्ता मास्तु भगिनि चिन्ता मास्तु चिन्ता मास्तु
भगिनि वन् डौट् किं पृच्छति प्रश्नान् पृच्छति सिन्स् प्रश्नाः इस् बहुवचनं केन् वि से कान् पृच्छति
Yeah, see, atra, it becomes a little bit confusing. Before, we used to teach like that, Bhagini. If it is pullinga, it is kaam, atava, kaha. Parantu, now they are asking us to teach only kim.
Okay. Because you don't know what, and you don't know whether the singular or
plural. We don't know what. But if you know what, then we can say, adhyapakah. Like tan prichati it's very confusing
okay
adhyapakah tan chatran prashnan tan you know so this is what they are telling but yes you can ask like that kan prichati then it look like we are asking a person So to make the distinguishing thing, we say, if it is a person, purushaha asti chet kam atava kam, no chet kim eva iti.
Dhanyavada Bhagini.
Dhanyavada. Astu agre. Sharada abhavatva na smarami.
अभवत् भगिनि
अस्तु उमाकृष्णन् भगिनि अग्रे
सः स्वदटिकं तं वाट् इस् इट् फार् वयम् अस्
सो वयं लेट्स् सी ओवर् हियर् अस्मान्
अस्मान् बहुवचनं
बहुवचनं
सो तम् अस्मान्
अत्र तं मास्तु सः एव उपदिशति कः उपदिशति
सः अस्मान् मन्त्राः उपदिशति
मन्त्रान्
पुल्लिङ्ग
स्त्रीलिङ्ग अस्ति चेत् मन्त्राः एव सः अस्मान्
सः अस्मान् मन्त्रान् उपदिशति.
अस्मान् मन्त्रान् उपदिशति. अस्तु, अत्र अत्र प्रश्नः कः?
सः हियर् इट् बिकम्स् कम् काम् इस्
कान् बिकास् वी डोण्ट् नो अस्मान् इति पुल्लिङ्गं वा स्त्रीलिङ्गं वा न जानीमः.
ओके,
बिकास् वी डोण्ट् नो इट् इस् कान्
कान् and then this is kim
kim kim eva kim
kim upadishati
kim kim upadishati mantran upadishati
dhanyavad
astu agre ramya bhagini
balakah kam kan janati kam kan na janati iti अद्य चित्रे निर्दिष्टम् अस्ति. तदाधारेण वाक्यानि रचयत्
रचयत् सो अत्र बालकः सो अत्र सर्वनामपदम् उपयुज्य कथं वदनीयम् इति उदाहरणम् अस्ति. बालकः सः अस्ति चेत् तम् एकवारं पश्यामः. सः अस्ति चेत् तं, सा अस्ति चेत् ताम्, तत् अस्ति चेत् तत् एव. प्रश्नः अस्ति कं, कां, किं. भवान् अस्ति चेत् भवन्तम्, भवती अस्ति चेत् भवतीम्, अहम् अस्ति चेत् माम्. अन्य किम् अस्ति? भवति. ते अस्ति चेत् कथं भवति? ते
तान्
तान् ताः अस्ति ए ताः अस्ति चेत् एताः एव. स्त्रीलिङ्ग अस्ति चेत् एताः एव. भवन्तः
भवन्तः
भवतः नकारः नास्ति, भवतः. उदाहरणं पञ्चमी षष्ठी एकवचनमपि भवतः एव, तथा स्मरन्तु. Remember it like that. Ditiya vibhakti bahuvachanam, panchami shashti ekavachanam samanarupam. Bhavat shabda, bhavat shabda. Bhavan iti asti pratama vibhaktau. Ditiya vibhakti bahuvachanam, panchami shashti ekavachanam samanarupam. Bhavatah. Bhavatya iti asti che ikaranta strilingam iva. कथं भवति?
भवतीः
भवतीः ईकारान्तस्त्रीलिङ्गम् इव. सो अतः भवतीः, भवतीं, भवत्यौ, भवतीः, भवतीं, परन्तु परन्तु भवतीं, भवतीः. अस्तु, पुनः सः अस्ति चेत्
तं,
तम्. एषा अस्ति चेत् एताम्, एताम्. भवान्
भवन्तम्,
भवती
भवतीं,
भवतीम्. सम्यक्. ते
तान्,
तान्. सः तौ, ते, तं, तौ, तान्, तं, तौ, तान्. एताः
एताः एव,
एताः एव. एताः बहुवचनं. सा ते ताः, तां ते ताः, तां ते ताः. भवन्तः
भवतः,
भवतः भवतः, भवत्यः भवतीः अस्तु अत्र एषः एतं सर्वे वदन्तु अतः मनसि न तिष्ठति सा
ताम्
सा अस्ति तां पश्यामि अहम् अस्मि
मां
पश्यतु मां वदतु तत् अस्ति
तत्तेतानि
तत्तेतानि नपुंसकलिङ्ग अस्ति चेत् परिवर्तनं नास्ति ताः ताः एव स्त्रीलिङ्ग अस्ति चेत् तथा एव भवति सा ते ताः तां ते ताः सा ते ताः तां ते ताः एते एतान् सः तौ ते तं तान् तान् तानि
तानि
एव तत्तेतानि 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 वयम्
अस्मान्
तत् किञ्चित् भिन्नम् अस्मान् अथवा नः परन्तु अस्मानेव प्रसिद्धः अस्ति अस्मान् नः अपि उपयोगे अस्ति परन्तु अस्मानेव बहुधा उपयोगे माम् आवाम् अस्मान् अस्तु रम्या भगिनी प्रथमं करोतु अनन्तरं सन्ध्या भगिनी रम्या भगिनी उदाहरणं पठतु अनन्तरं प्रथमं द्वितीयं करोतु
उदाहरणं तं जानाति
एतं न जानाति तं जानाति एतं न जानाति अस्तु द्वितीयं करोतु भगिनी बालकः
एतां जानाति तां न जानाति
सम्यक् तां न जानाति अस्तु सन्ध्या भगिनि आम् भगिनि
बालकः भवन्तं जानाति बालकः मां न जानाति
मां न जानाति अग्रिममपि करोतु कृपया
बालकः भवतीं जानाति बालकः तत् न जानाति
तत् न जानाति सम्यक् गोपिका भगिनि
बालकः आं भगिनि बालकः एतान् तान् न जानाति ताः न जानाति
तान् जानाति ताः न जानाति अस्तु केतकी भगिनि
बालकः एताः जानाति एतान् न जानाति
सम्यक् भगिनि उत्तमम् अस्तु परमेश्वर महोदय
बालकः भवन्तं जानाति तान् न जानाति
सो अत्र भवन्तः इति प्रथमाविभक्तिरूपं
भवन्तं बालकः भवन्तं जानाति
भवन्तम् इति एकवचनरूपे अस्ति सो अत्र पश्यतु भवतः
ओके बालकः भवतः जानाति बालकः
तत्ते तानि
बालकः तानि न जानाति
अस्तु आगरे भगिनि
बालकः भवती जानाति अस्मान् न जानाति.
अस्मान् न जानाति. सम्यक् सम्यक्. सो अत्र इकारान्त उकारान्त ऋकारान्तपदानि अस्ति वा? अत्र सुलभः एव. ते एव कोष्टकं दत्तवन्तः पुस्तकनिर्माणकारः. हरिं हरीन् सर्वत्र मकारः. अत्र किमपि नास्ति. केवलं नपुंसकलिङ्गे तथा नास्ति. दधि मधु एव. बहुवचने नकारः अस्ति पुल्लिङ्गे. स्त्रीलिङ्गे तथा एव अस्ति. ईः ऊः
भगिनि
ऋः. वदतु भगिनि.
एक प्रश्नः. हौ केन् वि नो हरिम् इस् अ पुल्लिङ्ग् एण्ड् मतीम् इस् अ स्त्रीलिङ्ग्?
बै बै अभ्यास भगिनि.
अस्तु.
By seeing the words 100 times, we will know.
Asu bhai.
Asu. But it is important to know, kalo ataha eva samyaktaya kartum shaknumaha. Harin va, matin va, matin iti vadamaha chet, doshaha. Asu, ah? Etasmin koshtake pullinga, strilinga, napumsakalinga naam, इकारान्तादीनाम् आदीनाम् इत्युक्ते इकार उकार ऋकार अस्ति. द्वितीयविभक्तेः एकवचान्तम् एकवचनान्तं रूपं बहुवचनान्तं रूपं च दत्तम् अस्ति. इट् इस् गिवेन्. अधो निर्दिष्टानां द्वितीयाविभक्तिरूपाणि लिखत. रविः रविः इत्युक्ते स्त्रीलिङ्गं वा पुल्लिङ्गं वा? पुल्लिङ्ग. वयं जानीमः खलु रविः इति पुरुषः पुरुषस्य नाम अस्ति. अपि च सूर्यस्य नाम अपि तथा एव इति वयं जानीमः. अस्तु. सो अत्र अत्र एव दत्तम् अस्ति पुल्लिङ्ग स्त्रीलिङ्ग इति. अस्तु. अग्रे का वदति? परमेश्वर महोदय अभवत्, सागरी अभवत्, सविता भगिनि.
आं भगिनि. भारविः भारवीं भारवीन्.
भारविं भारवीन्. सम्यक्. अस्तु. शौरिः भवती एव करोतु भगिनि. झटिति झटिति गच्छामः.
भगिनि शौरिः शौरिं शौरीन्
शौरिं शौरीन्. अग्रे वयम् अर्थं पश्यामः. इदानीं केवलं रूपमेव. अस्तु. शारदा भगिनि.
शरदिः शरदिं शरदीन्.
अग्रे
परिधिः परिधिं परिधीन्
परिधीन्. अस्तु. उमाकृष्णन् भगिनि.
सुमतिः स्त्रीलिङ्गं सुमतीं
सुमतिं स्त्रीलिङ्गस्य लक्षणमस्ति दीर्घ आकारः ईकारः ऊकारः ऋकारः इत्यादि. अस्तु. सुमतिः
सुमतिः
सुमतिं
सुमतिः
सुमति सम्यक् सम्यक्. सो अत्र पश्यतु भगिनि. मतिः अस्ति चेत् मतिं मतीः सुमतिं सुमतीः धेनुं धेनूः. अत्र मातरं मातृः. नपुंसकलिङ्गे दधि दधीनि. मधु मधूनि इति अस्ति. सम्यक्. अस्तु. अग्रिममपि करोतु. वाराणसीः
वाराणसीः वाराणसीः.
सो अत्र एकवचनं सुलभः एव खलु. केवलं मकारं योजनीयम्.
वाराणासीः
सम्यक् वाराणासीं वाराणासीः सम्यक् भगिनि रम्या भगिनि
बन्धुः बन्धुं बन्धुः बन्धून्
बन्धुः
बन्धुः कथं
पुल्लिङ्गं वा पुल्लिङ्गमस्ति चेत् बन्धून् क्षम्यतां बन्धून् एव क्षम्यतां भगिनि यु आर् रैट् बन्धून् स्त्रीलिङ्ग अस्ति अतः एव अहं बन्धुं बन्धून् सम्यक् एव अस्तु
भीरुः भीरुं भीरून्
सम्यक् भीरुं भीरून् न दृष्टवती तत् पुल्लिङ्गम् अस्तु अग्रे सन्ध्या भगिनि सो अत्र श्रोता इति ऋकारान्तपदम् ऋकारान्तपदं ऋकारान्तपदम् एकवारं पश्यामः किञ्चित् भिन्नरूपं भवति रम् इति भवति
पितरं पितृन्
पितॄन् मातरं मातृः अत्र श्रोता इति आ अस्ति खलु आ दीर्घ आकार अतः श्रोतारं श्रोतॄन् इति भवति
श्रोतारं श्रोतॄन्
पुल्लिङ्ग अस्ति चेत् अस्तु
भगिनि पिता बिकम् पितरं
पितरं श्रोता श्रोतारम् इति भवति श्रोतारम्
So here the ta continues to be dirgha it's not shrotaram but shrotaram
it's not shrotaram it's shrotaram
how do we figure that out bagini
only by abhyasa bagini
okay
only by abhyasa shrotaram shrota so if you are hearing shrotaram enough times you will not say shrotaram it will sound wrong एवमेव पितरम् इस् करेक्ट् पितारम् इस् नाट् करेक्ट् सो वि हाव् टु कीप् हियरिङ्ग् सो श्रवणाभ्यासमेव प्रथम इति वदन्ति अस्तु करोतु भगिनि श्रोतारं
श्रोतारं श्रोतॄन्
अत्र
माता मातरं
मातृः सम्यक् पिता भवत्या समापय
पिता पितरं पितॄन्
पितॄन् अस्तु समयः अभवत् अग्रिमवर्गे गच्छामः इदानीं समापयामः अस्तु ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः
ॐभ्यो नमः हरिः ॐ धन्यवादः भगिनि
धन्यवादः भगिनि
धन्यवादः
धन्यवादः भगिनी
धन्यवादः